एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली कथयति कृषिक्षेत्रस्य निर्वाहमुखतायाः अपेक्षया आधुनिकस्य उत्पादनमूलकस्य च क्षेत्रस्य रूपेण विकासः विधीयते। कृषि पशुपक्षी विकास मन्त्रालयेन गतदिने ललितपुरे आयोजितं नेपालस्य पशुजन्योत्पादनेषु आत्मनिर्भरतायाः घोषणा समारोहम् उद्घाटयन् प्रधानमन्त्री ओली अवोचत् कृषिक्षेत्रस्य उत्पादनम् उत्पादकत्वं च प्रवर्ध्य कृष्युत्पादनानां सामग्रीणां च निर्यात योग्यतया योजना निर्मीयते। प्रधानमन्त्रिणा ओलिना भाषितं स्वदेशे एव वृत्तिपार्जनानाम् अवसरस्य सर्जनं वर्तमान आवश्यकता वर्तते। प्रधानमन्त्री ओली अवोचत् कृषकेभ्य मलस्य अभावस्य निवारणाय स्वदेशे एव रासायनिक मलस्य उत्पादनशाल निर्माण प्रक्रिया अग्रे वर्धिता वर्तते। समारोहे प्रधानमन्त्री ओली नेपालम मांसाण्डयोः आत्मनिर्भरम् उदघोषयत। कार्यक्रमे कृषि पशुपक्षी विकास मन्त्री पद्मा कुमारी अरियाला पञ्चानां वर्षाणाम् अभ्यन्तरे सर्व विदेशु पशुजन्योत्पादनेषु आत्मनिर्भरतया कृषिजन्योत्पादनानां निर्यात कारिणी योजना मन्त्रालयेन निर्मितास्तीति अज्ञापयत। मन्त्री अरियालः अब्रवीत् विद्यालय स्तरादेव कृषि सम्बद्ध ज्ञान प्रदानस्य उद्देश्येन प्रतिविद्यालयं कृषि प्रयोगशाला निर्मास्यते। समारोहे पशुजन्योत्पादनेषु संलग्नाः राष्ट्रियार्थतन्त्रे योगदानं प्रापयन्तो व्यवसायिनः सम्मानिताः आसन्। प्रधानमन्त्रिणा नेकपा एमाले दलस्य अध्यक्षेण च केपी शर्मा ओलिना अद्य संसदीय दलस्य उपवेशः आहूतो वर्तते। प्रधानमन्त्रिणा ओलिना अद्य अपराह्नस्य त्रिवादने बालवाटार वर्तिनी प्रधानमन्त्री निवासे संसदीय दलस्य उपवेशः आहूतो स्थिति संसदीय दलस्य प्रमुख सचेतकः विशाल भट्टराई अज्ञापयत। उपवेशे दलाभ्यन्तरे उत्पन्नस्य अन्तर विवादस्य आगामी योजनायाः सामयिकतायाश्च विषयेषु विमृश्यते इति ज्ञापितमस्ति। प्रतिनिधिसभायां नेकपा एमाले दलस्य 20+ सांसदाः सन्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेश अस्यैव चैत्रस्य 20 दिवसे शुक्रवासरे द्विवादने ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये अवस्था। उपवेशे केन्द्रीय कार्यसमितेः पदाधिकारिणः केन्द्रीय सदस्याः आमन्त्रित केन्द्रीय सदस्याश्च उपस्थित्यै अनुरुद्धः सन्तीति दलस्य मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन ह्य प्रकाशितायं विज्ञप्तो ज्ञापितं वर्तते। प्रतिनिधि सभायाः अन्तर्राष्ट्रिय सम्बन्ध समितेः ह्यस्तनोपवेशे सांसदैः पुरातात्विक सम्पदः पर्यटकीय स्थलानां सांस्कृतिक क्षेत्रस्य च संरक्षणाय विकासाय प्रवर्धनाय च वस्तुगत नीतेः योजनानाञ्च निर्माणम् आवश्यकमस्ति इति उक्तं वर्तते। उपवेशे सांसदाः अवोचन् पर्यटन प्रवर्धनस्य नाम्नि स्थानीय स्तरेषु अव्यवस्थित संरचनाः निर्मीयमाणाः सन्ति इति कारणात् निर्माणस्य व्यवस्थिततायै स्पष्टां वस्तुगतां च नीतिं निर्मातुं सर्वकारः निर्देष्टव्यः। प्रतिनिधि सभायाः कृषि सहकारी प्राकृतिक स्रोत समित्या निर्माणाधीनायाः उपरितन तामाकोशी जलविद्युत आयोजनायाः स्थलगतं निरीक्षणं विधास्यते। समितेः ह्यस्तनोपवेशे सभापतेः पूर्णकुमारी सुवेदिनः नेतृत्वस्य 11 सदस्यीय समूहेन अस्यैव चैत्रस्य 14 दिवसे दोलखावर्तिनम् आयोजनायाः निर्माणस्थलं प्राप्य अनुगमनं विधातुं निर्णीतमस्ति। गृहमन्त्री रामबहादुर थापा थारू समुदायेन प्रस्तुतानां याचनानां विमर्शनाय मन्त्रिपरिषदः उपवेशेन वार्ता समूह संघटयिष्यते इति ज्ञापयति। विभिन्नाः याचनाः प्रस्तुत्य माइतीघर मण्डलास्थाने आन्दोलनरतायाः थारू कल्याणकारी सभायाः थारूहट थारूवान संयुक्त संघर्ष समितेः केन्द्रीय आन्दोलन परिचालन समितेः ह्यो ज्ञापनपत्रं गृह्णन्। गृहमन्त्री थापा अगदत् टीकापुर घटना प्रवृत्तिनां थारू समुदायेन प्रस्तुतानां 29 सूत्रीय याचनानां विषये सर्वकारः गभीरो वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रालयेन कोविड 19 संक्रमणस्य संकटस्य वर्धनस्य सम्भावनाम् आकलय्य विद्यालये पठन पाठनस्य क्रमे सम्मर्दं न कर्तुं जनस्वास्थ्यस्य सुरक्षायाश्च मापदण्डं कठोरेण पालयितुं च अनुरुद्धं वर्तते। शिक्षा मन्त्रिणा कृष्णगोपाल श्रेष्ठस्य अध्यक्षतायां गतदिने मन्त्रालये उपविष्टेन उपवेशेन शिक्षकाणां विद्यार्थिनाञ्च स्वास्थ्ये शिक्षण संस्थायाः क्रियाकलापेषु च सम्भाव्यस्य प्रतिकूल प्रभावस्य विषयं समीक्षा एतत् अनुरोद्धं निर्णीतमिति मन्त्रालयस्य प्रवक्ता दीपक शर्मा अवदत्। प्रवक्त्रा शर्मणा प्रकाशितायाम विज्ञप्तौ। विद्यालय संचालन सम्बद्धाम एतद् विक्रम वर्ष्याम कार्य संरचनाम पूर्णरूपेण अनुसर्तुम शिक्षण संस्थायाम सभा समारोह वार्षिकोत्सव प्रवृत्तिनाम जनसम्बद्ध प्रकृतेः कार्यक्रमाणाम आयोजनाम नकर्दुम कारयितुम च अनुरोधमस्ति। नेपाले ह्य अतिरिक्तेष् विंशत्यधिक शते जनेष् कोरोना संक्रमण पुष्टीभूतं वर्तते। सहस्रद्वयस्य एकनवत्यधिकाष्ट शतस्य च निदर्शनानां परीक्षणे विहिते विंशत्यधिक शते जनेष् कोरोना संक्रमण पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् अस्ति। एवमेव ह्य अतिरिक्ता 85 जना कोरोना संक्रमणात् मुक्ता सन्ति। ह्यस्तनावधि कोरोना संक्रमणात् मुक्तानां जनानां नेपाले समग्र संख्या लक्षद्वयं 270,000 270 शतद्वयं च प्राप्त अस्ति। ह्यस्तनावधि नेपाले कोरोना मुक्तानां जनानां प्रतिशतं 0.75% अस्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ गदती सर्वकार समृद्ध नेपाल निर्माणस्य अभियाने सक्रियो वर्तते। दोलखा जनपदस्य सैलुङ ग्रामपालिकायां गतदिने आयोजिते कार्यक्रमे मन्त्री गुरूङ पश्चात् तनेन राजनैतिक घटनाक्रमेण अभियानम् अग्रे वर्धयितुं सहयोगो मिलितोऽस्तीति अतर्कयत्। मन्त्री गुरूङ सर्वकारस्य परिवर्तनाय सर्वासु शक्तिषु सन्नद्धासु सतिष्वपि सर्वकारो न परिवर्तते इति समस्पष्टयत्। इति समाचारः।